अहम् एतस्मिन् सप्ताहे अहं गृहे एव आसम्।
अजय् श्रीनिवास्।
परन्तु अत्र तत्र किञ्चित् अटनं कृतवती, वेरेवर् ऐ नीड् टु गो, अहम् अत्र तत्र अटनं गोयिङ्ग् औट् अटनं कृतवती। गृहे एव विविधपाकानि पक्तवती, बालानां कृते विविधपाकानि पक्तवती। अन्यथा मम अन्तर्जाले मम कक्षाः प्रचलन्ति संस्कृतभारत्याः पत्राचारद्वारा अहं पाठयामि। प्रवेशा, परिचय, शिक्षा, कोविद इति चत्वारः स्तराः सन्ति, लेवल्स्, मम छात्राणां कृते। तत् अहं एकैकदिनम् एकैक पाठं, प्रवेशा एकदिनम् एकगणे वन् फर् वन् ग्रूप्, परिचय एकदिनम्, एवम् अहं पाठयामि। अनन्तरं मम विद्यालयछात्राः दशमकक्षाः 10th स्टाण्डर्ड् बालानां कृते, दशमकक्षा बालानां कृते अपि अहं प्रारम्भं कृतवती। यदा विद्यालयः प्रारम्भं भवति इति न जानीमः, अतः दशमकक्षा बालानां कृते अपि अन्तर्जाले एव इदानीं पाठयामि। तावदेव मम विषयं, भवन्तः वदति वा के प्रथमं वक्तुम् इच्छति? Who wants to go first? अस्तु, सामान्यवाक्यं पर्याप्तं।
जस्ट् शोभाय, गतसप्ताहे मम सखी जले सस्य उद्भव प्रति उक्तवती, अहं स्वीकरोति जले सस्य ग्रोयिङ्ग् प्लाण्ट्स् इन् वाटर्।
ओके,
हौ डु यु से दट्?
जलमग्न, जलमग्न
जलमग्न सस्य उद्भव प्रति, दट्
जलमग्न भविष्यामः, दट् विल् प्ले इन् द वाटर्, जलमग्न भविष्यामः।
Just grow plants in the water itself without soil, that's what I mean.
Aeroponics.
How to say that?
Jale eva sasyani vardayamah iti.
Jale eva sasya varda,
jale eva only in water, jale eva
jale
plants
sasyani
vardayamah, vardanam growing.
She told me about it. गतसप्ताहे मम सखी जल एव सस्यानि वर्धयामः प्रति उक्तवती, अहं स्वीकरोति इति सूचना समीचीनम् अस्ति।
सूचयामि
समीचीनम् अस्ति। अहं किञ्चित् बीज पल्लवित च एकं पात्रे आर्द्रवस्त्र उपरि स्थापयति,
स्थापितवती
प्रतिदिन एतत् उपरेण किञ्चित् जलं प्रोक्षणं कृतवती।
करोमि प्रतिदिनं, करोमि
यस्। अद्य मम दर्शन करोति करोमः तथा लघु
अद्य अहं दृष्टवती
दृष्टवती तत् लघु सस्य उदित, इदानीं
लघु सस्यानि उदिताः,
सस्यानि उदिताः,
उदितानि एव समये, लघु सस्यानि उदितानि,
लघु सस्यानि उदित अद्य मम दृष्टयति तत्र लघु सस्यानि उदिताः. इदानीं सरिषपाः, मेतिकाः, चनाः सस्यानि अस्ति.
सन्ति.
स्वल्पदिनाः पश्चात् वयं एतानि खादितुं शक्नुमः. That's all.
सम्यक्. उत्तमप्रयत्नं.
थैंक यू.
अनन्तरं खाद करोति.
अहं करोमि वा महोदय? अद्य अद्य मम सम्भाषणं वर्तमानकाले अस्ति. मम ग्रामम् इन् टापिक् मम ग्रामं बहु सुन्दरमस्ति. तस्य ग्रामं तिरुचि प्रदेशे सह 10 किलोमीटर् दूरे अस्ति.
तत्र ग्रामं नाम
श्रीरङ्गं.
अहमपि मन्नार्गुडीतः, मम मूलस्थानं.
जस्ट् ऐ एम् टेलिङ्ग् समथिङ्ग् डिफ़रेण्ट्. 10 किलोमीटर् दूरे अस्ति. तत्र 50 वर्षपुरातनविद्यालयम् अस्ति. तस्य विद्यालयं बहु प्रसिद्धमस्ति, यतः तत्र अड्वान्स् प्रातीतवेदशास्त्रं, गणितं, सङ्गणकपाठं च पाठयति. विद्यालयस्य वामतः अनेक गृहाणि सन्ति. मम गृहं ग्रामस्य मध्ये अस्ति. मम गृहस्य पुरतः एकं वापि अस्ति. तत्र कलहंसाः, मत्स्याः च बहु सुन्दरं दृश्यते.
सम्यक्. उत्तमं भगिनि.
Actually, I'm from
Srirangam. Anantaram? Kaha vadati? Kaha ek number asti, Doravani Sankhyava, restricted iti agachati. Kaha? Nam eva restricted iti asti. कः अस्तु, हू वान्ट्स् टु गो नेक्स्ट्? हरि ओम्. हरि ओम्, श्रूयते वा?
मम नाम अनु. I just wrote three or four sentences to prayatnam vibhakti karami. Ramasya patni Sita, Ramah Ayodhya nagare asit, Trini anujah Ramah asit, रामः अयोध्यानगरे कुत आगतवान्? रामः अयोध्यानगरतः वनम् आगतवान्. Shabari Pura Jeevan Ramaya Nivasanti. Is this correct? Shabari lived for Rama for her whole life. She lived for Rama. Pura Jeevan Ramaya Nivasanti.
Purana Jeevan Ramaya Arpitavati.
Arpitavati. Ramat Daya Sarva Janaha Ichanti. Samudre Vanaram Vanare Prati Shilakante Rame Namam Likanti.
Anantaram.
हरि ओं भगिनि अहमेक सम्भाषणं करोति
करोतु
सम्भाषणं बिट्वीन् टु फ्रेण्ड्स्
कुर्वन्तु
अद्य अहं चलचित्रमन्दिरं गच्छामि भवती आगच्छति वा अहम् अद्य व्यस्त अस्ति भवती अद्य किमर्थं व्यस्त अस्ति किं करोति अहं मङ्गलवासरे मध्याह्ने संस्कृतवर्गे अस्मि भवती संस्कृतं किमर्थं पठितवती अहं विष्णुसहस्रनामं भगवद्गीता रामायणं च अर्थम् एव न जानामि
ज्ञातुं पठामि
सो ज्ञासम् इस् लैक् वाण्ट् टु लर्न् इस् इट्
ज्ञातुम् इस् ज्ञानम्
या
ज्ञातुं टु नो दमीनि
ज्ञातुं
पठामि
ज्ञातुं
दट् इस् नाट् इट् ओवर् तुमुन् प्रयोगः इति दट् इस् नाट् इट् ओवर् चिन्ता मास्तु
अहमपि संस्कृतम् इच्छामि सम्यक् अहं मम शिक्षिका प्रक्षामि शक्यं वा न वा धन्यवादः
अनन्तरं
गतसप्ताहे अहं पति च हौ डि से फार्म् फार्म् फार्म्
फार्म् कृषिक्षेत्रं
कृषिक्षेत्रं गच्छामि
गतसप्ताहे वा गतवती
ओके
चिन्ता मास्तु
ऐ वाण्ट् टु से देयर् इस् अ ऐ मीन् वि हाव् अ काटेज् देयर् सो वि वेण्ट् टु स्टे देयर्
तत्र एकः कुटीरः अस्ति
तत्र एकः कुटीरः अस्ति
एकदिनं स्थितवन्तः
एकदिनं
स्टेड् पर् वन् डे हा एकदिनं अनन्तरं
दट्स् आल् फर् नौ
ओके अस्तु सम्यक् You are joining recently, right, for the last few classes?
Yeah, actually I had some internet issues.
Okay.
So I couldn't
You were attending this class initially and then stopped again, joined us.
Congrats. No, no, I have missed only one class, I think.
Okay.
Shall I try, Bagiri?
Yeah. Let's try.
महोदय अट् एण्ड् व्याख्यान् विषये पर्याप्तं
खलु पर्याप्तम् अलम् पर्याप्तम्
ओ आफ्टर् यू फिनिश पर्याप्तम् इस् एनफ् तावदेव तावदेव तावदेव
धन्यवादः
यू केन् से अभवत् आल्सो
अभवत् I have tried few sentences only.
Sure, sure.
Ayodhyayam Dasharatah Nama Raja Asit. Tasya Trini Bharyah Asan.
Tisrah Bharyah.
Tisrah.
Tisrah. Strilingam Tisrah.
Okay, okay. Tisrah. क्रमेण कौसल्या कैकेयी सुमित्रा च प्रथमः रामः प्रथमः कौसल्यायाः पुत्रः द्वितीयः भरतः कैकेय्याः पुत्रः
कैकेय्याः
कैकेय्याः तृतीय चतुर्थ लक्ष्मण शत्रुघ्नौ सुमित्रायाः दिस् इस् द्विवचन लक्ष्मण शत्रुघ्न पुत्र रामः पितुः पिता पितुः रामः पितुः आज्ञेन वनं गतवान् आज्ञेन इस् रैट् गतवान् तेन सह लक्ष्मणः सीता च गतवन्तः रावणः नाम राक्षसः वने सीताम् अपहरत् तां सीतां लङ्कानगरे नयितवान् रामः लङ्कानगरे गत्वा लङ्कानगरं गत्वा सर्वराक्षसान् राक्षसान् रावणञ्च हतवान् रामस्य अयोध्यायां रामस्य पट्टाभिषेकः भवति अभवत् 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 दट्स् आल्
सम्यक् भगिनी उत्तमप्रयत्नं वेरि गुड् अनन्तरं
महोदय इन्दस् सुमित्रायाः पुत्रौ
सुमित्रायाः पुत्रौ
not yet taught no
and we have not yet seen dvivachanam generally we don't start now dvivachanam instead of dvivachanam in that place we can use only bahuvachanam
रामः रामौ रामाः
यस् देट् इस् द्विवचनं अस्तु
प्रयत्नं करोमि वा भगिनि
अस्तु भगिनि सर्वेषां प्रयत्नमेव भवति
पत्रिकायाम् अद्यतनवार्ता एकं पार्श्वे
बहु शब्दम् आगच्छति अन्म्यूट् केन् आल् गो आन् म्यूट् एक्सेप्ट् द वन् हू स्टाकिङ्ग् except Parul Bhagini, can all of you go on mute? Bhagini, what's up? Hari Om, Parul Bhagini?
Astiva? I'm Bhagini. भगिनी
हा
I have written one story that I have sent you in WhatsApp group.
Okay, that I am reading. Ashamitam, I have not seen this week at all. I could not
never
see.
Mind, never mind. So,
some other
Shabari. Shabari Namakam Ekam Shri Rama Bhaktam Abhavan.
Bhakta Asit.
I have written in Bhutkal.
Asit eva. Bhutakal is Asit.
Asit. Okay. Rama Bhakta Asit. Sa Vruddha Dirghakala Paryatam Pratiksham Krutvati. Samayaha Paschat Ramaha Vanam Agachavan.
Agatavan.
Agatavan. Okay. Sa Ruditvati Sarven Pruchavati.
Prishtavati.
Prishtavati. Bhagavan Ramaha Kada Agashyami.
Agamishyati.
Agamishyati. Okay. Means when he will come, Ram Bhagavan Rama Shri Rama.
Agamishyati. Ramaha Kada Agamishyati.
Iti
Ruditavati. Okay.
Iti Ruditavati. Kintu Ramas Samaya I've done some double the sentences. Saharshit Kurditvati Samaya Paschad Rama Vanam Agashami Agatvan Kintu Ramasya Kahaka Bhojanam Dasyati.
Dasyami.
Chintanam Dasyami. Chintanam Krutvan. What I will. Krutvati, okay. Ah, Krutvati. Means what I will give him when he will come. Esha Bear Phalam. I don't know the word for this. Bear. Means Bear Phalam Nitvati.
Dattavati.
She is taking from the forest.
Okay. Vanataha.
Vanataha Nitvati. Vanataha Nitvati. Puna Chintvati cha Sanshayam Krutvati.
Chintitavati.
Chintitvati. Esha tat phala phalasya ruchihi amlam va maduram.
Etani.
Etani phalani. Etani phalani amlam va maduram. Parikshanarthe esha khaditvati.
Parikshartha.
Esha khaditvati.
Parikshartham.
Parikshartham. Esha khaditvati. Ramo
agatvan.
Phalam khaditvan. Ashirvadam dattvan. Shri Ramo ashirvadam dattvan. अस्तु
समयक भगिनी उत्तम प्रयत्न
ओके थैंक यू धन्यवाद भगिनी आई ट्राइड माय सेल्फ
उत्तम नेक्स्ट
आई विल ट्राई आई हैव डन अ सिंपल कन्वर्सेशन बिटवीन टू पीपल
सिंपल पर्याप्त भगिनी डोंट वरी
ओके टू पीपल रवि एंड मोहन रवि नमो नमः मम नाम रवि भवतः नाम किम् मोहन नमो नमः मम नाम मोहन रवि भवान् कथम् अस्ति मोहन अहम् सम्यक् अस्मि धन्यवाद भवान् कुशलम् किम् आम् अहम् अपि कुशली रवि भवान् कुत आगच्छति मोहन अहम् भारतदेशत आगच्छति रवि भवान् किं करोति अहम् अध्यापक अस्मि भवान् कदा विद्यालयं गच्छति अहं प्रातःकाले अष्टवादने विद्यालयं गच्छामि भवान् विद्यालयं कुत्र असति मम विद्यालयम् अस्ति मम विद्यालयं बेङ्गलूरुनगरे अस्ति भवान् किं विषय पठयति अहं गणितं
पाठयति
विषयं पाठयति ओके अहं गणित पाठयति
गणितं पाठयामि
गणितं पाठयामि ओके पाठयामि दिस् इस् टेन्सेस् इस् गेटिङ्ग् कन्फ्यूसिङ्ग्
एक्चुलि अहं श्रुतवती यदा भवती उक्तवती बिफोर् ऐ जस्ट् वेन् ऐ जस्ट् लाक्ड् इन् ऐ थिङ्क् यु हेव् द कन्फ्यूशन् वित् द्वितीया विभक्ति इन् प्रयोगः
okay
tam karma pada prayogah we'll see it today
okay
I noticed that you when you were discussing you all had some confusion in that when im should come griham something like that you had
tam
nam pate okay
then aham gachhami vilambit I want to say I'm late विलम्बं
भवति
भवति
मेलने ऐ गाट् लेट्
मेलनेन बहु सन्तोषः इट् वास् नैस् मीटिङ्ग् यु ऐ डोण्ट् नो इफ् इट्स्
मेलनेन सम्यक् एव मेलनेन बहु सन्तोषः
सन्तोषः पुनः मिलामः
पुनर्मिलामः
ओके
सम्यक्
थेङ्क् यु
अनन्तरं
केन् ऐ से भगिनि
या या श्योर्
ऐ जस्ट् से अ स्माल् स्टोरि एकः वानरः उद्यानम् उषितवान्
किञ्चित् उच्चैः वद भगिनि
एकः वानरः उद्यानम् उषितवान् स्टेड्
उद्याने उषितवान्
उद्याने एके दिने सः वृक्षस्य उपरि आसीत् नीचैः द्विमार्जारौ नवनीतौ अधः द्विमार्जारौ नवनीतम् आनीतवन्तः अनि वाट् यु से फार् फाट् देव फैटिङ्ग् योधित
युद्धं कृतवन्तः
युद्धं कृतवन्तः च वानरः वृक्षस्य अधः आगतवान् स मार्जारः
भगिनि योर् वाय्स् इस् वेरि फीबल् केन् यु बी लिटल् लौडर्
ओके
आर् कीप् युर् मैक् क्लोज़र् टु यु
सः मार्जारौ नवनीतं भागं कृत्वा Hello.
Hari Om.
Can you hear?
It's very feeble. For others?
Oh, maybe, I don't know. Something wrong with the internet.
Earlier it was better.
It was better.
It is feeble.
Okay.
Sir, Marjaro, Nishitam, Krutva, Sahayam Krutvan, Vanaraha Uktvan, एतत् भागम् अधिकम् अस्ति इति अहं खादामि एव वानरः पुनः पुनः उक्तवान् सर्व नवनीतं खादितवान् च मार्जार्योः युद्धस्य लाभं वानरं प्राप्तम्
धन्यवादः अनन्तरं के महोदय करोति वा
प्रयत्नं करोमि
हा सम्मुन् स्टार्ट् इदर् अरविन्द् महोदय कौशल्या भगिनी प्रारम्भं करोतु इदर् अपि
अहम् एकं प्रहेलिका वदतु
वदामि
I want everyone to try and answer this.
Krishnamukhi. Aham ek prahelikam vadami.
Vadami. So I want all others to answer this, to try and answer this puzzle.
Chinta mastu, parantu samskrite na eva vadatu.
Samskrite.
Prayatnam kurvantu, samskrite na vakyani vadatu. सर्वे प्रयत्नं कुर्वन्तु इति
सर्वे प्रयत्नं कुर्वन्तु कृष्णमुखी न मार्जारी द्विजीवा न च सर्पिणी पञ्चभर्ती न पाञ्चाली यो जानति स पण्डितः
लेखनी
आई अरे पेन It is black-faced, but not a cat, with two tongues, but not a snake, with five husbands, but not Draupadi. If you know what it is, you are a Pandit.
Samyak. Aham na janami.
Uttamam. Uttamam bhagini.
Lekhani mukham asti.
Lekhani.
Poorvatana lekhani. Adhyatana tu...
Ballpen.
Ballpen asti. Vayam upijyate.
सम्यक्
वाट्
इस् द फैव् थिङ्ग् सोरि
फैव् फिङ्गर्स् आर् होल्डिङ्ग् द
पेन् नो एक्चुअली आई विल् रिपीट् इन् इंग्लिश
ओके ओके
लाइक दैट
आई सेड मशी मींस इंक राइट
इंक
Repeat, can you repeat in English?
I'm black, but I'm not a cat. Okay, so I have two tongues, but I'm not a snake. I have five husbands, but I'm not Panchali, I'm not Draupadi. If you know the answer, I am a Pandit, or you are a Pandit.
So what is that, five husbands?
You hold the pen with five fingers, right?
No, three fingers, two or three.
No, but
the pen, two. The pen comes in five fingers, you know, so that is what it means. So, so the pen is like a Draupadi, you know, so she is with five husbands, but she is not Draupadi.
Actually, we are using three fingers only.
Only three fingers.
No, it is all the support, how everyone writes. It's a common factor.
Okay.
Yeah.
When you hold the pen, you cannot hold any other thing with your other two fingers, right? So those are also supporting indirectly.
That's true.
Parichaya va shiksha pustake va?
But
Kim?
His voice was not clear, so we couldn't be able to understand. Before that she answered.
It was very clear. I'm using, I don't know.
भवतः कस्य अरविन्द् महोदयस्य वा ध्वनि क्लियर् नास्ति इति
ध्वनिः
अस्तु महोदय सम्भाषणं करोति वा किमपि
सम्भाषणं
कौशल्य भगिनि एकनिमिषः
So this is a conversation between a lady and a boy. The boy's name is Ramesh. Ramesh, I'm audible?
Yeah.
Am I audible?
Kim
karoti bhavan Rameshah patam patami. I'm learning. Apanam gacchatu lavanam sharkara cha anyatu. आनयतु भगिनी वदतु का पत्राणि प्रक्षालयति मम पाठनं बहु अस्ति अनन्तरं पाठं पठतु द लेडी सेज़ बाय् सेज् शीघ्रं धनं स्यूतं सा ददतु सूतं च ददतु
ददातु
ददातु ददातु कन्वर्सेशन्
ओके अस्तु लघु प्रयत्नं सम्यक् उत्तमं हा कौशल्या भगिनी वदति वा
वदामि पत्रिकायाम् अद्यतनवार्ता एकं वा द्वे वदामि निर्धारितसमये मान्सून् वर्षाकालः भारतदेशे आगच्छति इति वातावरणविभागः पर्यावरणविभागः प्रोक्तः जून् पञ्च हौ फिफ्त् जून् फिफ्त् हौ टु से जून् फिफ्त्
पञ्चदश
जून् मासे पञ्चमदिनाङ्के ओके जून् मासे पञ्चमदिनाङ्के
जून् फिफ्त् जून् फिफ्त् आर् फिफ्टीन्त्
फिफ्त् पञ्चमदिनाङ्के जून् मासे पञ्चमदिनाङ्के केरळप्रदेशे आगच्छति इति प्रोक्तवन्तः द्वितीयवार्ता करोना वैरस् प्रभावं निरोधयितुं विश्ववित्तकोशः भारतदेशाय धनसहायं दत्तः अपरं दीर्घ काल पिधनस्य कारणाय जनितं आर्थिकदुर्व्यवस्था परिहर्तुमपि इदं सहायम् इति विश्ववित्तकोशस्य अध्यक्षः उक्तवान् अस्तु महोदय
सम्यक् भगिनि पठति वा किं वार्ता न्यूस् पेपर् अस्ति वा
वार्ता पठामि
सुधर्मा वा
सम्प्रति वार्ता इति
ओके
शाला छात्र
छात्राणां कृते
छात्राणां कृते एकं वार्ता आगच्छति
अन्ये यु गाट् द न्यूस् वार्ताम् अवगतं वा
नो टू डिफिकल्ट्
अस्तु भवती प्रयत्नं करोति वा ट्रान्स्लेशन् करोति वा कौशल्या भगिनी हेड्लैन्स् शार्ट्
मीटरोलाजिकल् डिपार्ट्मेण्ट् इन् इण्डिया हेस् अनौन्स् दट् द मान्सून् विल् अरैव् एट् द रैट् टैम् आन् जून् अरौण्ड् जून् फिफ्त् इन् केरला दट् इस् वन् न्यूस् सेकेण्ड् न्यूस् इस् टु contain the effect of coronavirus in India, the World Bank has given financial assistance.
Vittakoshaka Bank, Vishwa Vittakoshaka World Bank.
And it is due to a long time lockdown to mitigate those effects, the help has been given. That's what is the announcement by the president of the World Bank.
अस्तु भगिनि सम्यक् धन्यवादः अग्रे
एनिथिङ्ग् इस् यु सजेस्ट् अस् टु रीच् सो दट् वी केन् पिक् अप् दिस् कान्वर्सेशन् अण्ड् डे टु डे स्किल्स् कान्वर्सेशन्
या दट् सी दट्स् वाट् वि आर् ट्रैङ्ग् वन्स् आल् कम्प्लीट् ऐ विल् टेल् यु अग्रे के वदति इतोपि शर्मिला भगिनी अस्ति अनन्तरं मोस्ट्लि डन् शर्मिला भगिनी
महोदय
वदति वा
अस्मिन् सप्ताहे अहं गृहकार्यं न कृतवती अतः अद्य कक्षायां
गृहपाठम् अहं चिन्तितवती
गृहपाठं
गृहकार्यं गृहपाठं
गृहपाठं न
कृतवती
अतः
चिन्ता मास्तु इदानीं सम्भाषणं वदतु
सम्भाषणं इत्युक्ते अद्यतन मम दिनचर्या सङ्गणकस्य पुरतः का पुरतः वा दूरदर्शनस्य पुरतः एव अस्ति इति भाति. प्रतिदिनं प्रातः आरभ्य व्यायामकक्षा वा संस्कृतकक्षा वा सर्वैः सङ्गणकपुरतः अस्ति. प्रतिदिनम् अहं 5-6 किलोमीटर् अटनं करोमि. आपणात् गत्वा भक्षपानानि कृत्वा
गृहे
आपणं गत्वा ग्रोसरी इस् भक्षपान् बट् शुड् ऐ जस्ट् यूस् भक्षपान् आर् भक्षपानानि
वस्तूनि शाकानि
वस्तूनि क्रीडित्वा गृहे प्रतिनिवर्तमि क्रेत्वा गृहे प्रतिनिवर्तमि पाकं पचामि. तदनन्तरं पुत्रस्य प्रतीक्षां करोमि. दूरदर्शनं पुरतः पुनः एकघण्टा द्वे घण्टे उपविशामि पश्यामि. तदनन्तरं निद्रासमयपर्यन्तं दूरदर्शनं पश्यामि.
अभवत् सर्वे कृतवन्तः वा? एनिवन् लेफ्ट् औट्? अस्तु इति न इति अहं स्वीकरोमि. अस्तु अग्रे गच्छामः. सो हौ डु यु फील्? हौ इस् युवर् सम्भाषणम् एण्ड् वेन् यु लिसन् टु अदर्स् वाट् इस् द एक्स्पीरियन्स्? किं चिन्तयति when we started sambhashan 3 weeks back, where you were level, how do you feel today? Shravanam,
it's definitely better.
Shravanam,
it's definitely it's better. Definitely it is better, but sometimes we don't get the key words to write.
Chintamastu. That's the problem. Chintamastu. If you don't get it, see, for example, if you don't know what is for lockdown, if you don't know what is for provision, provision iti vadatu, aham provision kretva, aham lockdown madhya asmi, evam vadatu, apartment madhya asmi iti. Every word you don't need to get it at this stage.
Okay.
Kim na jana si, English madhya vadatu.
Yeah, I think one good thing is we understood everybody else.
Exactly.
Without the English translation, we could understand everybody.
Etat eva shravana samskaram iti.
Shravana
samskarah iti. Prathamam, you need to prepare your ears before your mouth.
Yeah. First, I think we have to understand. Then listen and understand, and then only we can reproduce it.
Correct. Tadaiva sambhashana sambhashana sabab pratham shravanameva. Etat samayam na chintayato, somebody is speaking, why should I listen? I know, or just concentrate on something else. Tat tyaktva sarvam tyaktva, concentrate here what they are telling. Is it right, or you may get some new words through that. That's why I ask everyone to speak and others to listen, though it takes time, it's okay.
What is your opinion, Bhagini?
Tadai raham api bahu santushta asti. Idanim saralataya vakyani agachati. And mostly you all are doing well, like when you start aham, me eva agachati. Tadai va mukhyam idanim, kriyapadam. अहं भवान् इति वदति चेत् तु आगच्छति, वदतु गच्छतु इति. एवम् इफ् यु कुड् ऐडेण्टिफै द प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः, अनन्तरं क्रियापदस्य उपयोगमपि सम्यक् कुर्वन्ति. मोस्ट्लि यु आल् आर् ट्रैङ्ग् वेल्. बहु सम्यक् अस्ति. सरलसम्भाषणमेव इदानीम् अस्माकं लक्ष्यम्. Some people are telling story, it's okay, they are doing extra. Parantu na chintayetu, aham evam kartum na shaknam iti na chintayetu. Sarala dinachari सम्भाषणं पर्याप्तम्. अत्र आगत्य किं चिन्तयति तदपि वदतु, पर्याप्तं, चिन्ता. एवं वयं प्रहेलिका सुभाषितं क्विज् अपि कुर्मः, परन्तु तदपि संस्कृतेन एव कुर्मः. यदा अर्थं वदति तदापि संस्कृतेन एव कुर्मः. मे बि नेक्स्ट् वीक् समोन् केन् कम् वित् सूक्तिः. सूक्तिः इस् वन् लैनर् आरसुभाषितम्. एवं प्रयत्नं कुर्मः. भाषासु सौन्द भाषासु सौन्दर्यं सुभाषितं
भाषायां. भगिनी, वाट् इस् सेम् इन् संस्कृत? सेम्,
समानं,
समानम्.
आम्,
लाक्डौन्, बिकास् आफ् लाक्डौन् मम दिनचर्या समम् अस्ति.
आं, समानं सर्वेषां
समानं अस्ति.
सर्वेषां दिनचरी समानमेव, सर्वेषां दिनचरी समानमेव. भवत्याः मात्रं नास्ति, सर्वेषां दिनचरी समानमस्ति
इदानीम्.
समानं दृश्यते. अस्तु, कर्णाटका मध्ये इदानीं किञ्चित् रिलाक्सेशन् अस्ति.
रिलाक्सेशन्,
अस्तु. इदानीम् अहं वेर् एवर् ऐ नोटिस्ड् वेर् यु हेव् सम् प्राब्लम् वैल् टाकिङ्ग्, ऐ जस्ट् शो दट् सम् प्रसेण्टेशन्स् आर् देर्. ऐ विल् शो दट् वेर् यु केन् वेर् एवर् यु नीड् दट् इम्प्रूवमेण्ट्. प्रथमम् अहं चिन्तितवती द्वितीया विभक्ति, when to use dvitiya vibhakti, that is a confusion in sambhashane. Dvitiya vibhakti sarvada agachati, aham pakam pachami api karma padam eva, karmam karyam kuru yada kurmah. Tat dvara aham kinchit slides idanim darshayami, screen share karomi. Sarvam aham na vadami, parantu kinchit yatra yatra avashyakam tat vadami. Pashyatu, chashakah asti. तत्र चषकः अस्ति, पुल्लिङ्गशब्दः चषकः इति अस्ति. यदा अस्ति प्रयोगः आगच्छति तत्र चषकः, किं लिङ्गमस्ति तत् लिङ्गम् एव. पुस्तकम् अस्ति, चषकः अस्ति, व्यजनम् अस्ति इति तत् लिङ्गं मात्रम् आगच्छति. कक्षा अस्ति, अद्य मम कक्षा अस्ति इति. तत्र अन्य कर्मं किमपि नास्ति, देर् इस् नो वर्क् गोयिङ्ग् आन्. चषकः अस्ति, इट् इस् देर्, दट्स् आल्. परन्तु देर् आर् सम् वर्क् इस् गोयिङ्ग्. पश्यतु नेक्स्ट् सेण्टेन्स्, अहं किं करोमि, अहं चषकं स्वीकरोमि इति अस्ति. सो प्रथमवाक्यं पश्यतु, चषकः अस्ति इति अस्ति. परन्तु द्वितीयवाक्ये अहं चषकं स्वीकरोमि इति आगच्छति. कर्मम् अस्ति, किं कर्मं? देर् इस् सम् वर्क् दट् ऐ एम् गोयिङ्ग् टु टेक् द ग्लास्. सो चषकमेव कर्मपदम् इदानीम्, अतः चषकं स्वीकरोमि इति. अस्तु, अत्र अधः पश्यतु, अहं कं स्वीकरोमि इति अस्ति. कः भेदः कं किं, भेदः कः इति पश्यति चेत् चषकः पुल्लिङ्गः, अतः कम् एव सम्यक्, कं प्रश्नवाक्यं. किम् इस् फर् नपुंसकलिङ्गशब्दम्. द इन् टु प्लेसस् यु केन् यूस् किं, वेर् यु डु नाट् नो द जेण्डर् of the karma, or it is an apumskalingam. For example, pustakam asti, aham kim karomi, aham pustakam swikaromi, tatra kim samyak. Parantu chashakaha iti janati, chashakaha asti iti janati, chashakaha pullinga shaptam iti api janati. So you know that there is a glass, glass is pullinga, and you know the pullinga shabda is kam, then you have to use that shabda one. Aham kam swikaromi, aham chashakam swikaromi iti avachati. Agraya pashyamaha, anantaram sandeham asti chet prachatu. Idanim pashyatu, mahila kim patati, mahila pustakam patati. Atra kim eva samyak, kimatam pustakam napumsakalinga shabdam, अतः किं पठति, पुस्तकं पठति सम्यक्. अनन्तरं चित्रोष्टः, चित्रोष्टः जिराफि, चित्र ओष्ट्रः. तत्र उष्ट्रः चेत् क्यामल्, उष्ट्रः एतत् सञ्चित्र मीन्स् द डिसैन् चित्र उष्ट्र ओष्ट्रः उष्ट्रः विल् बि ओ दट् इस् सन्धिप्रयोगः चित्रोष्ट्रः किं खादति चित्रोष्ट्रः पर्णं खादति अत्र पर्णम् अस्ति अतः किम् एव सम्यक् पर्णं नपुंसकलिङ्गप्रयोगम् नेक्स्ट् पुरुषः किम् आरोहति पुरुषः सोपानम् आरोहति सोपानं स्टेप्स् पश्यतु अत्र महिला किं करोति अत्र महिला स्त्रीलिङ्गशब्दं पुरुषः पुल्लिङ्गशब्दं किमर्थं वयं किम् एव उपयोगं कुर्मः चित्रोष्ट्रः अपि पुल्लिङ्गशब्दं द प्रीवियस् एक्साम्पल् ऐ सेड् बेस्ड् आन् युवर् कर्मपदं यु हेव् टु चेञ्ज् इट् कोऽपि वदति वा किमर्थम् अत्र किम् एव उपयोगं कुर्मः इति हरि ओम्
चित्रम् अस्ति चित्रम् इस् नपुंसकलिङ्ग
कुत्र चित्रमस्ति
चित्र उष्ण किं खादति खादति
अस्तु पश्यतु यु देयर् इस् द कन्फ्यूशन् पर्णं खादति एव परन्तु अत्र लिङ्ग पश्यतु एकनिमिषं तत्र लिङ्गद्वयमस्ति चित्रोष्ट्र महिला पुस्तकं पठति महिला श्रीलिङ्ग स्त्रीलिङ्गं किं पठति एषा पुस्तकं पठति सो वी नीड् टु टेक् द आन्सर्स् लिङ्गम् जस्ट् बिकास् महिला यु केनाट् से कं पठति महिला पुस्तकं पठति पुस्तकं किं लिङ्गं कर्मपदस्य लिङ्गं किम् नेक्स्ट् एक्साम्पल् चित्रोष्ट्रः किं खादति पर्णं खादति तत्रापि पर्णं नपुंसकलिङ्गं चित्रोष्ट्रः पुल्लिङ्गशब्दः परन्तु पर्णं नपुंसकलिङ्गं सो अवर् आब्जेक्ट् इस् टु गेट् दट् द्वितीया विभक्ति बेस्ड् आन् युवर् आन्सर्स् यत्र न जानाति यु डोण्ट् नो द आन्सर् आफ् दट्
महोदय आर् यु शोयिङ्ग् समथिङ्ग्
बिकास् या ऐ हैव शेयर्ड् द स्क्रीन् नो
नो ऐ एम् नॉट इन् इट्
क्षम्यताम् एकनिमिषम् इदानीं दृश्यते वा
आं भगिनि
सम्यक् पश्यतु चषकः अस्ति अहं किं करोमि अहं चषकं स्वीकरोमि अहं कं स्वीकरोमि चषकं स्वीकरोमि तदेव अहम् उक्तवती नेक्स्ट् स्लैड् एतदेव अहम् उक्तवती महिला किं पठति महिला पुस्तकं पठति चित्रोष्ट्रः किं खादति चित्रोष्ट्रः पर्णं खादति पुरुषः किम् आरोहति पुरुषः सोपानम् आरोहति सोपानं स्टेप्स् सो इदानीम् अत्र सर्वं किं किम् अस्ति परन्तु महिला स्त्रीलिङ्गं चित्रोष्ट्रः पुरुषः पुल्लिङ्गशब्दाः बट् अवर् टार्गेट् कर्मपदम् इस् इन् नपुंसकलिङ्गं सो अत्र सर्वत्र किम् आगच्छति अवगतं वा यु गाट् इट्
बट् बिफोर् आन्सर् नो हौ विल् यु नो दट् कर्मपद इस् नपुंसकलिङ्ग
दट्स् वाट् ऐ सेड् वेर् एवर् यु नो कर्मपदं फार् एक्साम्पल् अत्र एकपुस्तकम् अस्ति अहं न जानामि किम् इति परन्तु तत्र एकपुस्तकम् अस्ति अहं पुस्तकं स्वीकरोमि सम्बडि इस् आस्किङ्ग् किम् किम् अस्ति इति पुस्तकमस्ति यु नो दट् आन्सर् एक सूतः अस्ति, वन् हेण्ड् बेग् इस् देर् तत्र जानाति एव सूतः इति जानाति एव. सो दट्स् वाट् ऐ सेड् वेर् एवर् यु नो द आन्सर् ओके इन् दोस् प्लेसस् यु हाव् टु यूस् किं वेर् एवर् यु क्षम्यतां यु हाव् टु यूस् कम् फार् एक्साम्पल् चषकः यु नो देट् यु आर् गोयिङ्ग् टु टेक् द ग्लास् देन् यु आर् आस्किङ्ग् कम् स्वीकरोति इति.
In case it was mahila kim karoti means then we can then what should be
kim karoti kim eva general shabdah
question
a question if it's come for masculine then for feminine
that we will see next.
Oh, okay
so kam pullinga shabdah kim napumsakalinga shabdah wherever you don't know the gender napumsakalingam eva pradhanam pradhanam. नेक्स्ट् कां पश्यामः पश्यतु कः मिलति आञ्जनेयः मिलति आञ्जनेयः कां मिलति आञ्जनेयः सीतां मिलति सो अत्र स्त्रीलिङ्गपदं काम् सर्वे पश्यति वा दृश्यते वा ओहो ऐ हव् शेर्ड् द एण्टैर् वन् लेट् मी चेक् ओके ऐ कै पुट् द स्लैड् शो देन् वन् लेट् कम् इदानीं दृश्यते
वा
कः मिलति आञ्जनेयः मिलति आञ्जनेयः कां मिलति अत्र पश्यतु कः मिलति सो टु हूम् हीस् मीटिङ्ग् कः मिलति आञ्जनेयः मिलति आञ्जनेयः कां मिलति आञ्जनेयः हू टु हूम् हि मीट्स् आञ्जनेयः सीतां मिलति अत्र सीता स्त्रीलिङ्गपदम् सीतां कां मिलति तत्र भवन्तः जानाति सीताम् इति आन्सर् जानाति अतः काम् इति पृच्छति महिला कां धरति महिला मालां धरति धरति इस् वेरिङ्ग् महिला कां धरति महिला शाटिकां धरति महिला किं धरति महिला आभरणं धरति बिकास् किं पुल्लिङ्गशब्दः नपुंसकलिङ्गशब्दः आभरणं धरति महिला किं धरति कङ्कणं धरति कङ्कणं नपुंसकलिङ्गशब्दः अस्तु वा
सो मेम् इन्स्टेड् आफ् if it's Anjaneya, Kaam Milati, if you want to say Sita, who is Sita meeting, it will be Kaam instead of Kaam.
Sita, Kaam Milati.
Okay.
Kaam Milati, Chasha Kaam Svikaromi, Kalo. Same way, Anjaneya, Sita, Kaam Milati, Ashokavane, Kaam Milati, Sita, Ashokavane, Anjaneyam Milati.
Oh, okay, thank you.
आञ्जनेयं सो अत्र तत्र एव भवन्तः किञ्चित् अवधानम् आवश्यकं यदा वदति सर्वदा तत्र द्वितीयाविभक्तिप्रयोगम् आवश्यकम् अस्तु वा पश्यतु नेक्स्ट् वर्ड् कथं कथम् इति पश्यतु नौ यु सी अश्वः कूर्मः पश्यतु अत्र एकम् अश्वः अस्ति कूर्मः अस्ति अनन्तरम् एक रेल् यानम् अस्ति अनन्तरम् एक भूमशटिका अस्ति बुल्लक्काट् अस्ति अत्र प्रश्नं किम् अश्वः कथं धावति अश्वः कथं हौ कथं धावति अश्वः शीघ्रं धावति वि हव् आलरेडि डन् आल् दीस् थिङ्ग्स् वि हव् आलरेडि डन् परन्तु अहं जानामि भवन्तः किञ्चित् अत्र प्राब्लम् अस्ति इति प्रश्नवाक्यं लास्ट् वीक् वि आर् डन् द विभक्तिप्रयोगः नौ ऐ सी देट् यु आर् यूसिङ्ग् षष्टिविभक्ति सप्तमीविभक्ति सम्यक् उपयोगं कुर्वन्ति ऐ हेव् नोटीस्ड् दट् षष्टि अण्ड् सप्तमी यु आर् क्लियर् वित् अण्ड् पञ्चमी आल्सो सम्यक् उपयोगं कुर्वन्ति परन्तु द्वितीया मध्ये प्राब्लम् अस्ति अतः अहम् अग्रे न गच्छामि एतदेव अहं पाठयामि एतत् प्रश्नवाक्यम् इति वयं पठितवन्तः खलु किं कथं किमर्थम् इति क्वशन् वर्ड्स् तथा वयम् एकवारं पश्यामः अस्तु अश्वः शीघ्रं धावति इस् द आन्सर् देन् ऐ शुड् आस्क् अश्वः कथं धावति हौ इट् रन्स् अश्वः शीघ्रं धावति कथम् इति प्रश्नवाक्य भवन्तः आरोग्यं कथमस्ति
मम आरोग्यं सम्यक्
अस्ति सम्यक् अस्ति उत्तमम् अस्ति समीचीनमस्ति सो मेनि आन्सर्स् आल् आर् करेक्ट् समीचीनम् उत्तमं सम्यक् सर्वम् अस्तु कूर्मः कथं गच्छति अथवा कथं चलति
कूर्मः मन्दं
गच्छति चलति बोत् आर् फैन् यूशुलि वेन् गोस् वित् लेग्स् चलति विल् स्यूट् अस्तु अनन्तरं रेल्यानं कथं गच्छति रेल्यानं शीघ्रं गच्छति तत्र भूमशटक ऋषभशटकः अपि सम्यक् ऋषभशटक बुल् बुलकाट् ऋषभशटक कथं गच्छति मन्दं गच्छति सम्यक् इदानीं पश्यतु उच्चैः शनैः उच्चैः सौण्ड् वाल्यूम् शनैः
भगिनि केन् यु आस्क् कौसल्या जी टु म्यूट् हर् लैन् शी इस् टाकिङ्ग् लौड्ली आन् फोन् अण्ड् इट् इस् डिस्टर्बिङ्ग् आल् आफ् अस्
ओके Can someone message her? Because my screen is sharing. I could not see that.
Then
I
she has. Message.
She didn't see this message also?
Yes, she has not seen.
Okay, I will mute her. उच्चैः शनैः सो उच्चैः महिला कथं शब्दं करोति
उच्चैः महिला उच्चैः शब्दं करोति
महिला उच्चैः शब्दं करोति बालकः कथं वदति
बालकः
शनैः वदति उच्चैः वदति शनैः वदति बालिका युशुलि गर्ल्स् यूस् टु टाक् वेरि स्माल् गर्ल्स् नाट् अडल्ट्स् शनैः वदति बालिका शनैः वदति अथवा मन्दं वदति आल्सो करेक्ट् बट् जनरलि शनैः सूट्स् शनैः वदति वृद्धा शनैः वदति वृद्धः शनैः वदति अस्तु वा कथम् इति प्रश्नस्य उत्तरं बालसुब्रह्मण्यं गायति बालसुब्रह्मण्यं कथं गायति
सम्यक्
गायति. सो कथम् अनन्तरं किञ्चित् प्रश्नवाक्यानि सन्ति. कथम् इति प्रश्नस्य उत्तरं भोजनम् अस्ति, शिबिरम् अस्ति, गीतम् अस्ति, भवान् अस्ति. इदानीं भोजनम् एकैकः एकैक वाक्यस्य उत्तरं वदतु. भोजनं कथम् अस्ति? Either you can use this or you can tell your own words. स्वादिष्टम् अस्ति, सम्यक्. अनन्तरं शिबिरं कथं? लवणकरम् अस्ति. मधुरम् अस्ति, नेक्स्ट् स्लैड् ऐ विल् शो यु स्पैसस् स्पैसीनि रुचिक रुचिविषयं वदामि. नेक्स्ट् कटुः
कटुः अस्ति,
अहं वदामि अनन्तरं. अस्तु, अनन्तरं शिबिरं क्लास् संस्कृत सम्भाषणशिबिरम् इति नाम वयं किं कुर्मः, यूश्वलि वि टेक् 10 days 15 days कण्टिन्यूस् क्लासेस्. एतत् सर्वं शिबिरम् इति नाम. देट् इस् यु वि टाक् बोत् वेस्. इट् इस् नाट् अ क्लास् वेर् वन् वन् वे इण्ट्राक्षन् इस् नाट् देर्. वि बोत् विल् टाक्. इट्स् यूश्वलि काल् शिबिरं. आम् एवमेव वयं यदा पठामः तदेव शिबिरं. शिबिरं कथमस्ति?
शिबिरं वाट् इस् मीन्ड् बै बोधकं?
बोधकं द वे आफ् टीचिङ्ग्. बोधनं, बोधकं. When you are learning something, you are getting something inside.
Shibiram jnanadayakam asti.
Jnanadayakam asti, haan. Deergam asti, it's very long.
How do you say interesting?
Ruchikaram asti, ramaniyam asti.
Rasapradam asti.
Rasapradam asti.
Arthasadaram asti. Arthasadaram.
उपयोगकरम् अस्ति. अनन्तरं गीतम् अस्ति. गीतं कथमस्ति?
गीतं मधुरम् अस्ति.
गीतं मधुरम् अस्ति, रमणीयम् अस्ति. अनन्तरं भवान् अस्ति. भवान् कथम् अस्ति? तदेव अस्माकं प्रथमप्रश्नः. कथम् अस्ति वेन् वि मीट्? प्रथमं कथम् अस्ति? सम्यक् अस्मि. कुशली अस्मि?
कुशलम्
फैन्, कुशलं फैन्, ऐ एम् फैन्. इदानीं पश्यतु, एकैकः एकवाक्यं वक्तुं प्रयत्नं करोतु. संस्कृतभाषा कथमस्ति? अत्र आन्सर्स् अपि अस्ति. रमणीयं, परन्तु अत्र पश्यतु रमणीया इति अस्ति. किम् इत्युक्ते संस्कृतभाषा रमणीया अस्ति. किमर्थं रमणीया? भाषा स्त्रीलिङ्गप्रयोगः, अतः रमणीया. देट् वी विल् स्टडि लेटर्, जस्ट् अ हिण्ट्. अनन्तरं संस्कृतभाषा, यु यु केन् टेल् युवर् ओन् वर्ड्स्. कथमस्ति
संस्कृतभाषा?
संस्कृतभाषा
कठिनमस्ति.
सुन्दरम् अस्ति, उत्तमम् अस्ति,
उत्तमा, प्राचीना अस्ति, सम्यक् प्राचीना अस्ति, सरला अस्ति, मधुरा किम् इत्युक्ते भाषा, भाषा स्त्रीलिङ्गम् अतः मधुरा.
कठिनं कठिनम् अस्ति, कन्विन्दे कठिनम् आर् कठिनम्
मधुरा भाषा अतः मधुरा कठिना अस्ति, परन्तु
बालक रोदति,
मम पुत्रः एव, अतः म्यूट् कर्तुं न शक्नोमि. एषः किमपि कृतवान् न दृष्टवती. अस्तु क्षम्यताम्. अत्र संस्कृतभाषा सम्भाषणभाषा, काठिन्यं नास्ति. किम् इत्युक्ते केन् यु स्टार्ट् लर्निङ्ग् एनी लाङ्ग्वेज् अण्ड् टाक् फ्लूयेण्ट्लि लैक् 10 सेण्टेन्सस् केन् यु मेक् आन् द फ्लै इन् एनी अदर् लाङ्ग्वेज् टेक् एनी तेलुगु, कन्नड, फ्रेञ्च्, एनी अदर् लाङ्ग्वेज् केन् यु मेक् वित् इन् 2 मन्त्स् विल् यु बि एबल् टु make sentences and understand the language?
It's difficult. Nah. It's difficult.
No, at a young age it is possible.
I haven't tried.
Yeah, young age it is possible.
Na mahodaya evam na vadato. Mama eka chatra, saptatihi varshiya, 70 years. She did not know earlier. She just came to the Shibiram 1.5 years back. And now she is teaching almost 40 people. 40 adults. At 70 years she started learning. Now we both are learning together. The speed she learns is very fast. Now we both are learning Ashtadhyayi together.
And
she gets in all exams, she gets 98, 97. That is the highest mark. 99 is the highest. She had started teaching 3-4 batches every day she takes. So everything is service on the street. No, dhanam nas. She started learning at the age of 68 and she's 70 today. Tasyah,
we have hope.
Active. Prosaham
Drishwa. It's all depends on the interest. Interest.
It's all depending. Yes.
If you... Bagini?
Yes.
If you want to continue this, no, after this course, if you want to continue learning grammar or Sanskrit, how can we go about it?
I will explain all that later. We have all this. We'll discuss. Idanim aham katam vada. Kashayah ushnah. Pashito, atra ekam vishayam. Yada kashayah pulingashaptah ushnah iti asti. वा नेक्स्ट् संस्कृतभाषा स्त्रीलिङ्गा अतः रमणीया इति अस्ति. एवं पश्यति कषायः कथमस्ति.
कषायः उष्णः अस्ति.
वायुमण्डलः कथमस्ति? तत्र अस्ति इति न आवश्यकं, नास्ति अपि वदतु.
वायुमण्डलः उष्णः अस्ति.
न मम पुत्रः एव रोदति. एषः किमपि कृतवान्, अहं न दृष्टवती. ऐ जस्ट् ब्रोक् इट्. अतः अहं न दृष्टवती. सो कषायः उष्णः अस्ति अथवा उष्णः नास्ति, शीतलः अस्ति अपि शीतलः कोल्ड् शीतलं शीतलः बेस्ड् आन् वाट् लिङ्गं इदानीं कषायः कषायं वयं पिबामः खलु फर् फीवर् नथिङ्ग् कषायः वी नो ओन्ली काफी टी रैट् कषाय शुण्ठिकषाय जीराकषाय
वाट् इस् बिटर् भगिनि कषाय बिटर्
तिक्तः तिक्तः
अतिक्तः
नेक्स्ट् वि विल् सी bitter, we will see that. Yeah, the taste.
To take that neem leaves, kashayah bitter.
Neem leaves,
How do you say that?
Neem leaves. Kopi vayati va? This is sorry, suddenly. अस्तु अहं वदामि भगिनि. कषायः तिक्तः रुचिः वयं पश्यामः नेक्स्ट् रुचि वायुमण्डलः इदानीं कथमस्ति?
इदानीं वायुमण्डल उष्णः अस्ति.
इदानीं कथमस्ति? इदानीं स्वच्छता अस्ति, निर्मलः अस्ति, इट् इस् क्लीन् प्यूर्. किमर्थं देर् इस् नो फ्लैट् ट्राफिक्, देर् इस् नो वेहिकल् ट्राफिक्, संवर्धः नास्ति, वायुमण्डलः उष्णः अस्ति अपि सम्यक्, शीतलः अस्ति अपि सम्यक्.
पोल्यूशन् हौ डू यू से
मालिन्यं मलिनं मलिनं
प्रदूषणं
वायुमलिनम् अस्ति,
निर्मलमस्ति
इदानीं निर्मलम निर्मलः वायुमण्डलः निर्मलः अस्ति. अनन्तरं सेवा कथमस्ति? सेवा इस् सर्विस् यु टेक् एनी दर्शनं मन्दिरे सेवा कथमस्ति? सेवा शीघ्रा अस्ति अथवा शीघ्रा नास्ति? टेक् मोर् टैम्. मन्दं मन्दम् अस्ति अथवा निदानम् अस्ति? सो स्लोलि विलम्बं लेट् गेटिङ्ग् लेट्
उत्तमं गुड् गुड् सर्विस्
उत्तमम् अस्ति उत्तमा अस्ति सेवा
इस् इट् नाट् शीघ्रं स्त्रीलिङ्ग
सेवा शीघ्रा
स्त्रीलिङ्ग
चिन्ता मास्तु, यु डोण्ट् नीड् टु गिव् मोर् इम्पार्टेण्ट् टु देट्, परन्तु सरलवाक्यमेव आवश्यकम्. इट् इस् देर् अतः पश्यतु. वि नीड् टु करेक्ट् इट् बट् मे बि लिटल् लेटर् यु केन् करेक्ट्
स्टार्ट् स्पीकिङ्ग्.
भगवद्गीता कथमस्ति?
भगवद्गीता
अमृतमधुरा भगवद्गीता अमृतमधुरा मधुरा अस्ति.
भगवद्गीता श्रीलिङ्गम् अतः मधुरा ज्ञानबोधिका अस्ति. ज्ञानबोधिका अस्ति. अनन्तरं जनाः कथमस्ति? भगवद्गीता सरला अस्ति अपि सम्यक् जनाः सहृदया हेल्पिङ्ग् ईच् अदर् जनाः सहृदयाः सन्ति अत्र बहुवचनं सहृदयाः सन्ति
अलसाः
अनन्तरं गीतं कथमस्ति? गीतं मधुरम् अस्ति अथवा मधुरं नास्ति? सो कथम् उभयोः? अनन्तरम् इदानीं रुचिः, रुचिः मरीचिका, मरीचिका चिल्लि, हरितमरीचिका ग्रीन् चिल्लि,
हरितमरीचिका
कटु अस्ति, कटु स्पैसि कारं कटु अस्ति, हरितमरीचिका कटु अस्ति. अनन्तरं किं किं कारमस्ति? क्वथितं, क्वथितं साम्बार् क्वथितं कटु अस्ति, रसः, रसं रसः कटु अस्ति, अवलेहः कटु अस्ति, अवलेहः पिकल्, अवलेह, अवलेहः कटु अस्ति.
वाट् इस् अवलेह?
पिकल्,
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 pickle, you can tell anything, anything. Upacheshaha chutney, maybe I'll share that, the taste. Upacheshaha. Sure. Upacheshaha chutney. Kattu asti, kattu asti. Anantaram madhuram, madhuram sarve jananti. So gudu eva, gudu, madhuram asti, payasam madhuram asti. अनन्तरं
मिष्टान्नं मधुरमस्ति,
एतत् हिमा
चाकलेहः मधुरमस्ति,
चाकलेहः मधुरमस्ति,
पयोहिमं मधुरमस्ति,
पयोहिमं मधुरमस्ति,
जूस्
नवनीतं मधुरमस्ति,
फलरसः,
फलरसः मधुरमस्ति, फलरसं मधुरं, मधुरा, मधुरम् अत्रापि मधुरा अस्ति, स्त्रीलिङ्गं चेत् मधुरा अस्ति.
अनन्तरं
लवणं, लवणम् अद्यतनभोजनं लवणा, स कोऽपि उक्तवन्तः अद्यतन भोजनं लवणम् आसीत्, लवणकरम् आसीत्.
भगिनी, I had a doubt. Lavanam masti, one minute. Avaleha lavanam masti. So,
avaleha
lavanam.
Avaleha lavanam masti.
Pullinga, no? Pullinga.
Avaleha lavanam masti.
Lavanam masti. So, but actually, lavana is a napumsakalinga, no? Lavana.
Lavanam napumsakalinga. Atra, pashito, for these things, these are all called avyaya padam. There is no lingam for these words particularly. But when it comes with pullinga or strilinga, it takes that linga and can change it.
This is avyaya.
Accordingly, it will change. But it doesn't have, this is not any lingam based.
Okay.
So these things are called lavanam, the supporting words.
Supporting words,
which always takes the subject, kartru padasya, lingam, speaker. Anusar.
Is it, is it adjective, lavanam?
अवलेहः लवणम् अधिकमस्ति, लवणं न्यूनमस्ति.
अवलेहः पुल्लिङ्गशब्दः, अवलेहे,
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 लवणम् अधिकमस्ति,
लवणम् अधिकमस्ति अथवा न्यूनम्,
अवलेहे लवणं न्यूनमस्ति
अथवा अधिकमस्ति. अग्रे तिक्तं, कारवेल्लः, बिटर् सारवेल्लः तिक्तम् इति सारवेल्लः तिक्तम् अस्ति बिटर् तिक्तम् अस्ति कषायः तिक्तम् अस्ति कषायः तिक्तम्
औषधम्
औषधम् औषधं तिक्तम् अस्ति
तिक्तमस्ति
अनन्तरम् आम्लं सर्वे जानन्ति आम्लम् आम्लं जानन्ति आम्लम् अस्ति किम् आम्लमस्ति आम्लफलम् आम्लमस्ति द्राक्षाफलम् आम्लमस्ति स्पार्टेस् सूप् सूपः आम्लमस्ति अनन्तरं पुनः ओके अस्तु I think we'll see next week. Time. 5 minutes more. Shamitam. Agami Saptahe, the coming week, I will send this taste again. And Bhojana Vishyam. If at all I didn't send, please remind me. Bhojana Vishyam. Aham Preshaya. Maybe you can use that